एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। गोर्खा जनपदस्य चुम्नुब्री ग्रामपालिकायाः प्रथम वडा क्षेत्रवर्तिनी मनास्लु हिमालयस्य आधार शिविरे दुरापन्नेन हिमस्खलनेन एको मृतः आसन चतुर्दश जनाः आहताश्च सन्ति। मृतकः शंखुवासभा जनपदस्य मकालु ग्रामपालिकायाः अनुप राई अस्थिति गोर्खा प्रमुख जनपदाधिकारी शंकरहरि आचार्यः अज्ञापयत। मनास्लु हिमालयस्य शिखरम् प्राप्तः अमेरिका देशीय नागरिकः हिमारोही हिलारी निल्सन स्खलित्वा विलुप्तः इति प्रमुख जनपदाधिकारी आचार्यः अबोधयत। हिमस्खलनेन गभीरेण आहतौ दौ जनौ उद्धृत्य काष्ठमण्डप मानितौ इति च असौ ज्ञापितवान्। आहतानां द्वादश जनानाम् अवस्था संकटमुक्ता वर्तते इमे तृतीय आधार शिविरे विद्यन्ते इति पर्यटन विभागस्य आरोहण दलस्य अधिकृतः यशोदा अरियालः असूचयत। नेपाली कांग्रेस दलस्य संस्थापनेतर पक्षेण समानुपातिक सूच्यां स्वपक्षस्य नेतारः न समाविष्टाः इत्युक्त्वा असन्तुष्टिः व्यक्तास्ति। नेपाली कांग्रेस दलस्य नेतुः डाक्टर शेखर कोइराला विधस्य निकटस्थानां नेतृणां ह्यः काष्ठमण्डपे सम्पन्नेन मेलनेन दलस्य निर्णयं प्रति असन्तुष्टिम् अभिव्यक्तवता सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये स्व एक घण्टावधौ प्रदर्शनं विधातुं निर्णीतमिति नेता जगदीश्वर नरसिंह केसी अज्ञापयत। नेता नरसिंह केसी सूचीं संशोध्य स्वपक्षस्य नेतृभ्यः उचित प्रतिनिधित्वस्य सुनिश्चयनं नेतृत्वाद् अभियाच मानः याचनायम् अपूरितायम् सत्यम् विरोधस्य कार्यक्रमेभ्यः नैरन्तर्यम् प्रदास्यते इत्यवोचत। सत्ता गठबन्धने स्थानानाम् आवंटनस्य विषयं निर्णेतुं संघटितस्य कार्यदलस्य गतदिवसीयोपवेशेऽपि प्रदेशसभानां सदस्यानां स्थानानाम् आवंटनस्य विषये विमृष्टम्। प्रतिनिधिसभायाः स्थानानाम् आवंटनस्य विषयः शीर्षनेतॄणां च विमर्शनमनु प्राय सहमतेर्निकटं प्राप्तः सन्नपि प्रदेशसभानां सदस्यानां स्थानानाम् आवंटनस्य निर्णयनम् अवशिष्टम्। तदनु गठबन्धन कार्यदलस्य रविवासरात् उपविष्टे उपवेशे प्रदेशसभानां सदस्यानां स्थानानाम् आवंटनाय सहमतिम् धर्तुम् प्रयत्यमानम् वर्तते। गतदिवसीयोपवेशे सहमति धारणस्य अभावात् अद्य प्रातः अष्टवादने पुनः उपवेश्य नत्वेन गठबन्धन कार्यदलस्य ह्यस्तनोपवेशः स्थगितो भवदिति कार्यदलस्य कार्यालय सचिव केशवराज जोशी रेडियो नेपालम् अज्ञापयत। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य पूर्वाह्नस्य एकादश वादनात् उपविष्टे गठबन्धन कार्यदलस्य उपवेशे दलानां मध्ये व्यापकं विमृष्टं सदपि सहमति धारणस्य अभावात् अन्तिम रूप प्रदानार्थम् अतिरिक्तं विमर्शनं विधातव्यम् अवदिति कार्यदलं ज्ञापयति। कार्यदलेन प्रदेशसभानां विषय स्वरूप निर्माणानन्तरं प्रतिनिधिसभायाः प्रदेशसभानां च उभयोरेव पक्षयोः स्थानानाम् आवंटनस्य निर्वाचनक्षेत्राणां च विषयाय अन्तिमरूपं प्रदास्यते इति सचिवः जोशी अवोचत। निर्वाचनायोगेन निर्वाचने प्रत्याशिभिः व्ययीकरणीयस्य वित्तस्य सीमां वर्धयितुं पूर्वकार्यं विहितमस्ति। व्ययीकरणीयस्य वित्तस्य सीमायाः विषये अद्य राजनीतिकदलैः सह विमृश्य आयोगेन निर्णीयते इति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अज्ञापयत्। आयोगेन चतुस्सप्तत्यधिक द्विसहस्रतम विक्रम वर्षस्य निर्वाचने प्रतिनिधिसभायाः पक्षस्य प्रत्याशिनां कृते पञ्चविंशतिः लक्षाणि प्रदेशसभायाः पक्षस्य प्रत्याशिनां कृते पञ्चदश लक्षाणि रूप्यकाणि व्ययीकर्तुं सीमा निर्धारिता आसीत्। विजयादशमी पर्वणि काष्ठमण्डपोपत्यकातः आसन्न विंशतिः लक्षाणि व्यक्तयः बहिर्गच्छन्तीति अनुमितमस्तीति महानगरीय यातायात व्यवस्थापन कार्यालयेन ज्ञापितं वर्तते। अधुना प्रतिदिनं नागढुङ्गा सागा भञ्जाङ मुड्खु फर्पिङ मार्गैः उपत्यकातः बहिर्निर्गच्छतां जनानां संख्या पञ्चाशतः सहस्रेभ्यापि अधिकास्तीति महानगरीय यातायात व्यवस्थापन कार्यालयस्य प्रवक्ता राजेन्द्र प्रसाद भट्ट अज्ञापयत। गतार्थिक वर्षद्वये कोरोना संक्रमण प्रवृत्तिभिः कारणै विजयादशमी पर्वणः समयेऽपि उपत्यकातः बहिर्निर्गच्छतां जनानां संख्या न्यूनमात्रायाम् आसीत्। विजयादशमी यम पञ्चक पर्वणोः कृते गृहं गन्तुकामान् यात्रिणो लक्षीकृत्य सर्वकारेण ह्यस्तन दिवसात यान चालन मार्गानुमति पत्रस्य प्रदानं प्रारब्धमस्ति। विजयादशमी पर्वणः पूर्णिमां यावत् यात्रिभ्यः गृहस्य गमनाय सौविध्यं भवेदित्युद्देशेन व्यवस्थासु विहितास्ति। कस्यचित् मार्गस्य आकारस्य विशेष प्रकृतेः कारणेन तथा विदेश मार्गेषु निषिद्धानि वृहदाकारकाणि यातायात साधनानि अधुनापि निषिद्धानि एव सन्तीति यातायात व्यवस्था विभागेन ज्ञापितं वर्तते। डेंगू रोगस्य संक्रमणात् ह्यः त्रयो जना मृताः इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। षड्सप्तत्यां जनपदेषु प्रसृतस्य डेंगू रोगस्य संक्रमणस्य कारणेन अधुनावधि मृतानां संख्या द्वात्रिंशत् प्राप्तेति मन्त्रालयस्य सहप्रवक्ता डाक्टर समीर कुमार अधिकारी अज्ञापयत। श्रावण मासात् अधुनावधि आराष्टं पञ्चविंशत्यां सहस्रेषु त्रिचत्वारिंशदधिक पञ्चशते च जनेषु डेंगू रोगस्य संक्रमणं पुष्टिभूतम्। बागमती प्रदेशे सर्वाधिकेषु ऊनविंशत्यां सहस्रेषु दशाधिक नवशते च जनेषु संक्रमणं दृष्टमिति डाक्टर अधिकारी अज्ञापयत। संक्रमण नियन्त्रण निरोधन महामारी रोग नियन्त्रण महाशाखया ऊनचत्वारिंशदधिक शते स्थानीय स्तरेषु षष्ट्यां जनपदेषु सप्तषु एव प्रदेशेषु च अन्वेषण विनाशनाभियानम् अग्रे वर्धापितम् अस्तीति मन्त्रालयेन सूचितं वर्तते। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमला दाहाल प्रचण्ड आत्मना प्रधानमन्त्रिण प्रतिस्पर्धायां स्थितं नास्तीति भासते। प्रेस सेन्टर नेपालेन पूर्वेद्यो चितवने आयोजिते कार्यक्रमे असौ आत्मना प्रधानमन्त्रिण प्रतिस्पर्धायां न स्थितं लोकतन्त्रस्य राष्ट्रस्य संविधानस्य च रक्षा आत्मना सर्वोपरि प्राथमिकता स्थिति अब्रवीत्। असौ राजनीतिका स्थिरतायै लोकतन्त्रस्य सुदृढीकरणाय आर्थिक विकासस्य वातावरणस्य निर्माणाय च आत्मना सततं क्रियाशीलता भवतीति प्रतिबद्धतामभिव्यनक। कार्यक्रमे भरतपुर महानगरपालिकायाः प्रमुख रेणु दाहाल ज्येष्ठ पत्रकाराणां कृते कल्याणकारी कोषस्य नेपाल पत्रकार महासंघस्य भौतिक पूर्वाधार सहयोगस्य प्रशिक्षण केन्द्राय भूमेर व्यवस्थापनस्य लोक कल्याणकारी विज्ञापनस्य लेखन वृत्त्यश्च विषयेषु महानगरेण सहकार्यं कृतमिति अवदत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कथयति देशाय नैतिक शक्तियुतं नेतृत्वम् आवश्यकं वर्तते। तनहु जनपदस्य व्यास नगरपालिकायाः चतुर्थवडा क्षेत्रे ह्यः आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेलः राष्ट्रस्य समग्र विकासाय नैतिक शक्तिमतो नेतृत्वस्य आवश्यकतां प्रादर्शयत्। गृहमन्त्री बालकृष्ण खाँड भासते राष्ट्रिय सुशासनं स्थापयितुं संविधानस्य पालना आवश्यकी वर्तते। रूपन्देही जनपदस्य बुटवल स्थाने ह्य आयोजिते कार्यक्रमे मन्त्री खाँड अवोचत् संविधानेन विहिताः व्यवस्थाः पालिताः सत्याः एव समाजे सुशासनं सम्भवति। गृहमन्त्री खाँड केपी नागरिकाः नागरिकतातः वञ्चिताः न भविष्यन्तीति संविधाने एव उल्लेखनात् एतद् आधारेणैव सर्वकारेण नागरिकता विधेयकं निर्मितम् इत्यभासत। गृहमन्त्री खाँड ह्य एव रूपन्देही जनपदस्य सिद्धार्थनगरे सम्पर्क कार्यालयम् उद्घाटयन् प्रतिनिधि सभया राष्ट्रिय सभया च वारद्वयं पारितीकृत्य प्रेषितं नागरिकता विधेयकम् अप्रमाणीकृत्य राष्ट्रपतिना वर्तमान राजनैतिक व्यवस्थायाः संविधानस्य च विपरीतं कार्यं विहितमिति आरोपयत्। स्वास्थ्य जनसंख्या मन्त्री भवानी प्रसाद खापुङ कथयति जनतायाः प्रतिगृहम् एव प्राप्य निःशुल्कं स्वास्थ्य सेवां प्रदापयितुं सर्वकारः प्रतिबद्धोऽस्ति। बारा जनपदस्य सीमरास्थाने आसन्नैकविंशतेः कोटीनां व्ययेन निर्मीयमाणस्य पञ्चदश शय्यानां चिकित्सालयस्य ह्यः शिलान्यासं विदधानो मन्त्री खापुङ अगदत्। प्रतिस्थानीयस्तरं एकं चिकित्सालयं प्रतिवडाक्षेत्रम् आधारभूतं स्वास्थ्य केन्द्रञ्च स्थापयितुं सर्वकारेण कार्यं विधीयमानं वर्तते। संघीय विषय सामान्य प्रशासन मन्त्री राजेन्द्र प्रसाद श्रेष्ठ कथयति लोकतन्त्रस्य मूल्यस्थापनार्थं गठबन्धनम् आवश्यकं वर्तते। रिपोर्टर्स क्लब नेपालेन ह्य आयोजिते साक्षात्कार कार्यक्रमे मन्त्री श्रेष्ठ एवं अभासत।